अर्थफलप्राप्त्यर्थं सर्वेषां जनानां क्षेमं ऐश्वर्यादिवृद्ध्यर्थम्
मददसि पृथिव्याविष्मदेवत्वम्
आध्यात्मिका पुरुषार्थसिद्ध्यर्थं श्रीमहासरस्वतीदेव्याः भूमण्डले अस्मिन्निरामयनिरुपद्रवनिरापत्समाजनिर्माणार्थम् चान्द्रसौरसावननाक्षत्रवानस्पत्यमानेषु विवह्यमानेषु